अथ गीता महात्म्य प्रारंभ धरोवाच भगवन् परमेशाना भक्तिरव्यभिचारिणी प्रारब्धं भुज्यमानस्य कथं भवति हे प्रभो। श्री विष्णुरुवाच प्रारब्धं भुज्यमानो हि गीताभ्यासतः सदा समुक्तः स सुखी लोके कर्मणा नोपलिप्यते। महापापादिपापान् गीताध्यानं करोति चेत् क्वचित् स्पर्शं न कुर्वन्ति नलनीलमम्बुवत्। गीतायाः पुस्तकं यत्र यत्र पाठः प्रवर्तते तत्र सर्वाणि तीर्थानि प्रयागादीनि तत्र वै। सर्वे देवाश्च ऋषयो योगिनः पन्नगाश्च ये गोपाला गोपिका वापि नारदोद्धव पार्षदै समायन्ति तत्र शीघ्रं यत्र गीता प्रवर्तते। यत्र गीता विचारश्च पठनं पाठनं श्रुतं तत्राहं निश्चितं पृथ्वी निवसामि सदैवै। गीताश्रयेऽहं तिष्ठामि गीता मे चोत्तमं गृहम्। गीताज्ञानमुपाश्रित्य त्रीलोकान् पालयाम्यहम्। गीता मे परमा विद्या ब्रह्मरूपा न संशय अर्धमात्राक्षरा नित्या सा निर्वाच्य पदात्मिका। चिदानन्देन कृष्णेन प्रोक्ता स्वमुखतोऽर्जुनं वेदत्रये परानन्दा तत्त्वार्थज्ञानसंयुता। योष्टादश जपो नित्यं नरो निश्चलमानस ज्ञानसिद्धिं स लभते ततो याति परं पदम्। पाठे समर्थः सम्पूर्णे ततोऽर्धं पाठमाचरे तदा बोधानुजं पुण्यं लभते नात्र संशयः। त्रिभागं पठमानस्तु गङ्गास्नानफलं लभेत् षडंशं जपमानस्तु सोमयागफलं लभेत्। एकाध्यायं तु यो नित्यं पठते भक्तिसंयुता रुद्रलोकमवाप्नोति गणो भूत्वा वसेच्चिरम्। अध्यायं श्लोकपादं वा नित्यं यः पठते नर स याति नरतां यावन् मन्वन्तरं वसुन्धरे। गीताया श्लोकदशकं सप्तपञ्चचतुष्टयं द्वौ त्रिनेकं तदर्धं वा श्लोकानां यः पठेन्नरः चन्द्रलोकमवाप्नोति वर्षाणामयुतं ध्रुवं गीतापाठसमायुक्तो मृतो मानुषतां व्रजे। गीताभ्यासं पुनः कृत्वा लभते मुक्तिमुत्तमां गीतेच्चुच्चारसंयुक्तो म्रियमाणो गतिं लभे। गीतार्थश्रवणासक्तो महापापयुतोऽपि वा वैकुण्ठं समवाप्नोति विष्णुना सहमोदते। गीतार्थं जायते नित्यं कृत्वा कर्माणि भूरिश जीवन्मुक्तसविज्ञेयो देहान्ते परमं पदम्। गीतामाश्रित्य बहवो भूभुजो जनकादय निर्धूतकल्मषालोके गीतायाता परं पदम्। गीताया पठनं कृत्वा माहात्म्यं नैव यः पठेत् यथा पाठो भवेत् तस्य श्रमयेव सुदाहृतः। एतन्माहात्म्यसंयुक्तं गीताभ्यासं करोति यः सतत्फलमवाप्नोति दुर्लभां गतिमाप्नुयात्। सूत उवाच माहात्म्यमेतद्गीताया मया प्रोक्तं सनातनं गीतान्ते च पठेद्यस्तु यदुक्तं तत्फलं लभे। गीताशास्त्रमिदं पुण्यं यः पठेत् प्रयतः पुमान् विष्णोः पदमवाप्नोति भयशोकादिवर्जितः। गीताध्ययनशीलस्य प्राणायामपरस्य च नैव सन्ति पापानि पूर्वजन्मकृतानि च। मलनिर्मोचनं पुंसां जलस्नानं दिने दिने सकृद्गीतां भजे स्नानं संसारमलनाशनम्। गीतासु गीता कर्तव्या किमन्यै शास्त्रसङ्ग्रहै या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृता। भारतामृतसर्वस्वं विष्णुवक्त्राद्विनिःसृतं गीतागङ्गोदकं पीत्वा पुनर्जन्म न विद्यते। सर्वोपनिषदो गावो दोग्धा गोपालनन्दन पार्थो वत्स सुधीर्भोक्ता दुग्धं गीतामृतं महत्। ॐ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम्। अद्वैतामृतवर्षिणीं भगवतीं अष्टादशाध्यायिनीं अम्बत्वामनुसन्धदामि भगवद्गीते भवद्वेषिणी। नमोऽस्तु ते व्यासविशालबुद्धे पुल्लारविन्दायतपत्रनेत्र येन त्वया भारततैलपूर्ण प्रज्वालितो ज्ञानमयप्रदीपः। प्रपन्नपारिजाताय तोत्रवेत्रैकपाणये ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः। वसुदेवसुतं देवं कंसचाणूरमर्दनं देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुं। भीष्मद्रोणतटा जयद्रथजला गान्धारनीलोत्पला शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला। అశ్వత్థామ వికర్ణ ఘోరమకరా దుర్యోధనావర్తిని సోత్తీర్ణా ఖలు పాండవై ప్రణనదే కైవర్తక కేశవ పారాశర్యవచ సరోజమమలం గీతార్థగంధోత్కటం నానాఖ్యానక కేసరం హరికథా సంబోధనాభోదితం లోకే సజ్జన షట్పదైరహరః పేపీయమానం ముదా భూయాద్ భారత పంకజం కలిమల ప్రధ్వంసి నశ్రేయసే మూకం కరోతి వాచాలం పంగుం లంఘయతే గిరిం యత్కృపాతమహం వందే పరమానందమాధవం యం బ్రహ్మా వరుణేంద్ర రుద్రమృతస్తున్వంతి దివ్యైస్తవై వేదై సాంగపదక్రమోపనిషదైర్గాయంతి యం సామగా ధ్యానావస్థిత తద్గతేన మనసా పశ్యంతి యం యోగినా యస్యాంతం న విదు సురాసురగణా దేవాయ తస్మై నమః.